स्मरामि देवदेवेशं वक्रतुण्डं महाबलं षडक्षरं कृपासिन्धुं नमामि ऋणमुक्तये एकाक्षरं ह्येकदन्तं एकं ब्रह्मसनातनम् एकमेवाद्वितीयं च नमामि ऋणमुक्तये सर्पोपवीतं च नमामि ऋणमुक्तये
रक्ताम्बरं दत्तवर्णं रक्तगन्धानुलेपनं रक्तपुष्पप्रियं देवं नमामि
पुष्पप्रियं देवं नमामि ऋणमुक्तये
धूम्राम्बरं धूम्रवर्णं धूम्रगन्धानुलेपनं होमधूमप्रियं देवं नमामि ऋणमुक्तये
वक्रतुण्डं महाबलं षडक्षरं कृपासिन्धुं नमामि ऋणमुक्तये इति ऋणविमोचनमहागणपति स्तोत्रम्।